सर्वेभ्यः नमस्कारः। अद्य विसर्गसन्धिप्रकरणे तृतीया कक्षा, जिह्वामूलीय उपध्मानीयानाम् उपवादसूत्राणि अधीयन्ते। येनाक्षरसमां नायमधिगम्य महेश्वर उत्सं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। विसर्गसन्धिप्रकरणे यथा आदौ दृष्टं, खरि अवसाने च परे विसर्गः उत्पद्यते। उत्पन्नस्य विसर्गस्य सामान्येन उत्सर्गतः खरि परे सत्त्वम् इत्युच्यते, शरि परे वैकल्पिकं सत्त्वं, खर्परे शरि लोपः, शर्परे खरि विसर्गस्य स्थाने विसर्गः, तदतिरिच्य खरि परे विसर्गस्य सकारादेशः भवति। विशेषतया कवर्गे पवर्गे च परे, अर्थात् ककारे खकारे परे, पकारे फकारे च परे, कुप्पोः कह्पौ च इति सूत्रेण जिह्वामूलीयः उपध्मानीयश्च विधीयते। विसर्गस्य कवर्गे परे जिह्वामूलीयः, पवर्गे परे उपध्मानीयः इति नियमः। इदं सूत्रं सत्त्वस्य अपवादभूतं। दिस् इस् एन् एक्सेप्शन् टु सकारादेशं, बट् एस् एन् एक्सेप्शन् टु दिस् वि अगेन् हाव् सकारादेश। You should notice the how he has put it. First, initially, generally, we have sakaradesha mandated irrespective of what khar is there. But when it is kavarga or pavarga, by kupvoh kahpocha, we get jihvamuliya or upadhmaniya. But there are further exceptions to this which prevent jihvamuliya or upadhmaniya and give sakara. Basically, sakara. It is a sakara if the visarga is preceded by akara, or shakara, murdhanya shakara if the visarga is preceded by other swaras or in, basically. So, kupvoh kahpocha iti sutrasya apavadatvena sopadadav. Apadadav, apadadyohu kupvohu parayohu visargasya sthane sakaraha bhavati natu jihvamooliyaha upadmaniyova. Kutra labhyate apadadav kavargah pavargova iti cheta pasha kalpa ka kamyeshu iti vachyam. एतेषु प्रत्ययेषु परेषु सोपदादौ इति सूत्रेण विसर्गस्य स्थाने सकारः आदेशः भवति जिह्वामूलीयम् उपध्मानीयञ्च बाधित्वा। पाशप् कल्पप् क काम्यच् इति प्रत्ययाः एतेषु प्रत्ययेषु परेषु जिह्वामूलीयं बाधित्वा उपध्मानीयञ्च बाधित्वा सकारः आदेशः भवति। यथा पयः पाशम् इति स्थिते सकारादेशे पयस्पाशम्, यशस्कल्पं यशस्कं यशस्काम्यम् इति उदाहरणानि। अस्मिन् सूत्रे अनव्ययस्येति वाच्यं। यदि अव्ययस्थः विसर्गः तर्हि तस्य स्थाने सकारादेशः न भवति, किन्तु जिह्वामूलीयः उपध्मानीयो वा भवति। प्रातः कल्पम् इत्यस्ति चेत् प्रातःकल्पम् इत्येव, न तु प्रातस्कल्पम् इति। तथैव काम्ये रोरेवेति वाच्यम्। काम्यच् प्रत्यये परे यदि विसर्गस्य स्थाने सकारादेशः भवति तर्हि रोरेव भवति। ससजुषोरुः इत्यनेन यत् रुत्वं विधीयते, तस्य रोः स्थाने यः विसर्गः खर्वसानयोर्विसर्जनीयः इत्यनेन भवति, तस्यैव विसर्गस्य सकारादेशो भवति। यदि स्वयं प्रातिपदिके रेफः विद्यते, यथा प्रातर् इति रेफान्तमव्ययम् अथवा गिर् इति रेफान्तं प्रातिपदिकम्, तस्य रेफस्य स्थाने विसर्गे कृते तस्य विसर्गस्य काम्यच् प्रत्यये परे सत्त्वं न स्यात्। ते एव गीः काम्यति इत्यत्र जिह्वामूलीय एव श्रूयते, न तु षत्वम्। सोपदादौ इत्यस्यैव सूत्रस्य इत्येव अर्थे इणश्शः सोपदादौ, अर्थात् अपदाद्योः कुप्वोः परयोः का पाश कल्प क काम्येषु परेषु इणः परस्य विसर्गस्य षत्वं भवति। So both these deal with the same case, where a visarga is followed by kavarga or pavarga, which is not at the beginning of a pada, which implies that when a visarga is followed by pashap, kalpap, ka or kamyach, if the letter preceding the visarga is akara, we get sakara as the adesha. If it is any other swara or hayavarala, that is if it is in, then we get shakara. For example, sarpish pasham, sarpish kalpam, dhanushkam, etc. Agrimam sutram bhavati namaspurasor gatyohu. Namaspuras ityetayohu avyayohu नमस्पुरस् इत्येतयोः अव्यययोः गतिसंज्ञकयोः यदा गतिसंज्ञा वर्तते तदा तयोरवयवः यः विसर्गः तस्य स्थाने सकारः आदेशः भवति कुप्पोः परयोः। गतिसंज्ञा कदा भवति? नमःशब्दस्य साक्षात् प्रभृतीनि च इत्यनेन करोतौ परे कृ धातौ परे विकल्पेन गतिसंज्ञा अस्ति। गतिसंज्ञायां सत्यां सत्त्वं भवति नमस्करोति, तदभावे नमः करोति अथवा नमः करोति। पुरस् इत्यस्य पुरोव्ययम् इत्यनेन नित्यं गतिसंज्ञा वर्तते, तस्य पुरस्करोति इत्यत्र सत्त्वं श्रूयते। अग्रिमं सूत्रमस्ति इदुदुपधस्य च अप्रत्ययस्य। अप्रत्ययस्य विसर्गस्य इकार उकार उपधस्य, उपधा अलोन्त्यात् पूर्व उपधा, द पेनल्टिमेट् लेटर् इस् काल्ड् उपधा। सो इफ् इदर् इत् द शार्ट् इकार आर् उत् शार्ट् उकार इस् इन् द उपधा विच् इस् फालोड् बै अ विसर्ग, द विसर्ग विच् इस् नाट् अ पार्ट् आफ् अ प्रत्यय। नौ इफ् दिस् इस् फालोड् बै कवर्ग आर् पवर्ग देन् वि हाव् षकार अस् द आदेश। सो द एक्साम्पल्स् आर् निष्प्रत्यूहम् निस् निहि प्रत्यूहम् इति स्थिते इकारोपधस्य अप्रत्ययस्य विसर्गस्य, अत्र विसर्गः प्रादिस्थः, सो द विसर्ग डस् नाट् बिलाङ्ग् टु एनि प्रत्यय। सो सो देर् वि हेव् निष्प्रत्यूहम् निष्कर्म निष्काम, एनिवेर् यु हेव् दीस् एक्साम्पल्स्। ओके, सो अत्रैव कश्चन किञ्चन आर्थिकमस्ति एकादेशशास्त्रनिमित्तकस्य न षत्वम्। So I'll just go through it again. The problem was, we have idudupadasya cha pratyayasya matuhu krupa ityasti atra asya sutrasya pravrittihi bhavati va nava iti prashnah. The doubt is, can we apply idudupadasya cha pratyayasya in matuhu krupa? What are the conditions for idudupadasya cha pratyayasya? First thing, there should be ikara or ukara at the upadha. The second thing, the visarga should not belong to a pratyaya. And the third thing, there should be kavarga or palavarga following. So we see here matuhu ityatra upadhayam ukaraha vartate. So the first condition is satisfied. And then there is a kripa, kakara following. So the third condition is also satisfied. Now we have to check if the second condition holds good. That is, does the visarga belong to the pratyaya or not? Question, visargaha pratyayasthova apratyayasthova iti prashnaha. तस्य उत्तरं ज्ञातुं मातुः इति शब्दस्य निष्पत्तिः द्रष्टव्या। कथं भवति? मातृ इति ऋकारान्तात् प्रातिपदिकात् षष्ठी विभक्ताव् एकवचने मातृ ङस् इति ङस् प्रत्ययः भवति। ङस् सत्य अस् इति शिष्यते, मातृ अस् इति स्थिते, ऋत उत् इति सूत्रेण ऋकार अकारयोः स्थाने उकारः एकादेशः भवति। The ukara is an ekadesha which replaces the r of matru and the a of as. So in place of both we have u. And since this is an an adesha in the place of rukara, we have uranra paraha. So we have ur as the effective adesha. So we have matu, ur, su. It is thite. Rat sasya ityanena asya pratyasya sakaraha lupyate matur ityasti. Tasya repasya visarge matuhu. इदानीम् अयं विसर्गः कस्य भवति? प्रातिपदिकस्य वा प्रत्ययस्य वा? उभयोः स्थाने एकादेशः कृतः, देर् हेस् बीन् एन् एकादेश रिप्लेसिङ्ग् वन् लेटर् फ्रम् द प्रातिपदिक एण्ड् वन् फ्रम् द प्रत्यय, इट् इस् एन् एकादेश, उर् हेस् रिप्लेस्ड्। नौ दिस् ऋ, डस् इट् बिलाङ्ग् टु द प्रत्यय आर् टु द प्रातिपदिक इस् द क्वश्चन्। एकादेशः, सिन्स् इट्स् एन् एकादेश, डस् इट् गो टु द प्रीवियस् पार्ट् आर् टु द लेटर् पार्ट्? तस्य निर्णयं कर्तुं सूत्रमस्ति अन्तादिवच्च। योऽयमेकादेशः सः पूर्वस्य अन्तवत् परस्य आदिवत् स्यात्। द एकादेश आल्वेस् बिहेव्स् लैक् द एण्डिङ्ग् आफ् द प्रीवियस् पार्ट् एण्ड् द बिगिनिङ्ग् आफ् द लेटर् पार्ट्। नौ वेन् यु आर् सेयिङ्ग् इट्स् द इफ् वि कन्सिडर् इट् टु बि द बिगिनिङ्ग् आफ् द लेटर् पार्ट्, द लेटर् पार्ट् इस् अ प्रत्यय। यदि परादिवद्भावः स्वीक्रियते तदा परस्य अर्थात् प्रत्ययस्य आदौ अयं रेफः अस्ति, तदा तु अप्रत्ययस्य इति न भवति, प्रत्ययस्यैव विसर्गः। किन्तु पूर्वान्तवद्भावः यदि आश्रीयते, यदि पूर्वस्य अर्थात् प्रातिपदिकस्य अन्तवत् अयम् एकादेशः भवति तर्हि अयं प्रत्ययस्य विसर्गः न इफ् वि टेक् पूर्वान्तवद्भाव दट् इस् द एकादेशः बिहेविङ्ग् लैक् द एण्डिङ्ग् आफ् द प्रातिपदिक देन् द विसर्ग इस् नाट् दट् आफ् अ प्रत्यय If the visarga is not that of a pratyaya, then the second condition is also satisfied. So we can apply idudupadasya cha pratyayasya and replace visarga with a shakara. Purvantavadbhavena visargaha pratyayavayava bhinnaha. Pratyayasya vayavo nasti. Tena idudupadasya etena shatvam prapnoti. Kintu nabhavati. Kimartham nabhavati. Vartikam vartate ekadesha shastra nimittakasya na shatvam. विसर्गस्य निमित्तं यदि एकादेशशास्त्रं भवति तर्हि तत्र शत्वं न भवति किं प्रमाणम् इति चेत् कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् कस्कादीनि च इति कस्कादिषु च इति सूत्रं वर्तते वी हेव् आलरेडी स्टडीड् इट् इट् सेस् इन् द वर्ड्स् विच् हेव् बीन् कवर्ड् इन् द क्लास् आफ् कस्कादि कस्कादि इस् अ ग्रूप् आफ् वर्ड्स् सो वाट् एवर् वर्ड्स् आर् देर् इन् दट् ग्रूप् we get sakara or shakara depending on the preceding letter so this sutra was made created by panini to deal with those forms which do not get shatva by any other sutra there are certain forms where we hear sakara or shakara but the form cannot be derived by some sutra so for that he made them into one group and put them at the end of this prakarana and said in these words you can take sakara shakara as they are now in this गण कस्कादिगणे भ्रातुष्पुत्रः इति शब्दः पठ्यते भ्रातुः पुत्रः इति स्थिते षत्वं भवति भ्रातुष्पुत्रः किमर्थम् अस्मिन् गणे तस्य पाठः कृतः पाणिनिना केनापि सूत्रेण न प्राप्नोति इत्येतदर्थम् अस्मिन् गणे सः शब्दः उल्लिखितः हि इस् इन्क्लूडेड् भ्रातुष्पुत्रः इन् दिस् गण थिङ्किङ्ग् आर् अस्यूमिङ्ग् दट् भ्रातुष्पुत्रः विल् नाट् गेट् शत्व बै एनी आफ् द कामन् सूत्रास् नौ इफ् वि फालो द लाजिक् आफ् द प्रीवियस् स्लैड् पूर्वान्तवद्भावेन भ्रातुः यथा मातुः इति भवति तथैव भ्रातुः इत्यपि रूपं निष्पद्यते भ्रातुः इत्यत्र यदि पूर्वान्तवद्भावेन प्रत्ययावयवभिन्नः विसर्गः इति कृत्वा इदुदुपदस्य चाप्रत्ययस्य इत्यनेनैव षत्वं प्राप्नोति तर्हि अस्मिन् गणे तस्य शब्दस्य पाठः कुतः वै डु वि नीड् दट् शब्द इन् दिस् गण इफ् यु केन् ईजिलि यूस् अ सूत्र टु डिरैव् द सेम् फार्म् which means the sutra will not apply here. We cannot apply idudupadasya chapratyayaha here. So, keeping that in mind, the Vartikakara has created this Vartika and says, Ekadesha shastra nimittakasya nashatvam. Wherever you have a visarga which has been derived using some Ekadesha shastra, then we cannot do shatva. So, only Bhratushputraha, because it is in Kaskadigana, will get shatva. Other forms like Matuhu Krupa, or Matuhu Putraha, if the form is there, will not get Shatva. Yadi Bhratuhu Putraha ityatra idudupadasya cha pratyayasya ityeva shatva siddhihi tarhi kaskadigane tasya shabdasya pathaha eva vyarthaha syat. Tasmat anaya ritya shatvam na bhavati Matuhu Krupa ityeva Matush Krupa iti na bhavati. अपरं वार्तिकं वर्तते मुहुसः प्रतिषेधः मुहुस् इति अव्ययं सकारान्तम् अव्ययं तस्य कुप्वोः परयोः षत्वं न भवति प्लीज़् एक्स्क्यूस् मी फार् अ मोमेण्ट् ऐ हेव् ए काल् हलो केन् हियर् मी
Yes, Swami.
Sorry. Okay. Muhusaha pratishedha iti vartikam. Muhus iti avyayam. Tasya yaha visargaha, tasya sthane shatvam na bhavati. Iti arthaha. Muhuhu kama ityasti. Atra visargaha apratyayastha. All conditions are satisfied. There is an ukara in the upadha. The visarga does not belong to pratyaya. And there is kakara following. All conditions are satisfied for application of idudupadasya cha pratyayasya. किन्तु मुहुसः प्रतिषेधः इति वार्तिकस्य सत्त्वात् अत्र षत्वं न भवति मुहुः काम इति जिह्वामूलीयः अथवा मुहुः काम इति विसर्ग एव अग्रिमं सूत्रमस्ति तिरसोऽन्यतरस्यां बहु सुलभं तिरस् इति अव्ययं पुनः तस्य स्थाने विकल्पेन अन्यतरस्यां विकल्पेन सत्त्वं भवति. पदद्वयमस्ति तिरसः अन्यतरस्यां विसर्जनीयस्य सः इत्यतः विसर्जनीयस्य इति अनुवर्तते. कुप्वोः कःपौच इत्यतः कुप्वोः इति अनुवर्तते. सोपदादौ इति सूत्रेण सः सकारः अनुवर्तते. तिरसः इति षष्ठी विभक्तिः. तिरस् इति अव्ययस्य स्थाने विसर्जनीयस्य इत्यपि षष्ठी. तिरस् इति अव्ययस्य यः विसर्गः तस्य स्थाने कुप्वोः कवर्गे पवर्गे च परे सः प्रथम सकारादेशः भवति इत्यर्थः. तिरसो विसर्गस्य सः वा स्यात् अन्यतरस्याम् इत्युक्तत्वात् विकल्पेन भवति कुप्वोः ककार कवर्गपवर्गयोः परयोः. तिरः कर्ता इत्यस्ति. सकारे तिरस्कर्ता, तदभावे तिरः कर्ता, तिरः कर्ता. एवमेव तिरस्करोति, तिरः करोति, तिरः करोति. आक्चुलि द तिरस्करोति द फार्म् वित् सत्त्व इस् मोर् पाप्युलर् बट् द अदर् फार्म्स् आर् आल्सो करेक्ट्. द नेक्स्ट् सूत्र इस् विस्त्रिश्चतुरिति कृत्वोर्थे. द्विः त्रिः चतुः इति कृत्वोर्थे पदद्वयं विसर्जनीयस्य सः विसर्जनीयस्य कुप्वोः विणश्यः इत्यतः शः इति तिरसोऽन्यतरस्याम् इत्यतः अन्यतरस्याम् इत्यपि अनुवर्तते. कः अर्थः? कृत्वोर्थे वर्तमानानाम् एषां विसर्गस्य षकारः वा स्यात् कुप्पोः परयोः. सो वेन् द्विः त्रिः आर् चतुः इस् फालोड् बै कवर्ग आर् पवर्ग देर् इस् षकार इस् द नथिङ्ग् कृत्वोर्थे. सो वाट् इस् कृत्वोर्थे? संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् इति सूत्रं वर्तते. कृत्वसुच् इति प्रत्ययः. द कृत्वोर्थे हियर् रेफर्स् टु द कृत्वसुच् विच् इस् अ सफिक्स्. क्रिया संख्यायाः क्रियाभ्यावृत्तिगणने द कृत्वसुच् इति प्रत्ययः संख्यावाचकशब्देभ्यः भवति. कदा भवति? क्रियायाः आवृत्तिगणने. वेन् यु आर् कौण्टिङ्ग् द नम्बर् आफ् टैम्स् अ पर्टिक्युलर् एक्शन् हेस् बीन् पर्फार्म्ड्. लैक् फार् एक्साम्पल् द English word which would match to this is twice. Twice means some action has been repeated two times. Tasmin eva arthe samskrute krutva such iti pratyayah upayujyate. Yatha pancha krutvah yajate. Pancha iti sankhyavachaka shabdat krutva such pratyayah krutvah iti shishyate. Pancha krutvah means five times. He sacrificed, he performed something five times. Sapta krutvah stauti. He phrases seven times. So here in both cases, as you can notice, the kriya, the action has is being repeated, either the yajana or the stavana, and the kritvasuch is added to the number, to a word indicating number, to indicate the number of times the kriya has been repeated. Sankhyayaha kriyabhyavrittiganane kritvasuch dvitri chaturbhyas such. Purva sutratu kriyabhyavrittiganane iti anuvartate such. For dvi, tri and chatur, for these three words, instead of krutva such, we have a pratyaya called such, which is in the same meaning. It carries the same meaning as krutva such, but the pratyaya is such. So when you add such pratyaya to dvi, it becomes dvihi. The actual, the sankhyavachaka shabdasya, dvau, dvau, dvabhyam, 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 ityadi rupani, asya tu dvihi, dvihi nama dvivaram. Twice. Dvihi means twice. Okay. Dvihi bhungte. He eats twice. Trihi gachati. He goes thrice. Chatuh pathati. He reads four times. So after, I think in English, after twice and thrice, we don't have such words. But in Sanskrit, you can make it to whatever number, you can add kritva such. For if it is dvi, tri or chatur, the suffix is such. For others, it is kritva such. द्वित्रिचतुर्भ्यः सुच् इत्यनेन एतेभ्यः सङ्ख्यावाचकेभ्यः सुच् प्रत्ययः विधीयते कृत्वोर्थे. दिस् इस् वाट् द सूत्रकार मीन्स् बै कृत्वोर्थे. means kriyabhya vritti ganane. When it indicates the number of times of repetition of a kriya, then you have this. So for, as an aside, there is ekasya sakritcha. In the same series you have the sakrit. Eka is replaced by sakrit. Sakrit means once. The word, Sanskrit word for once is sakrit. So all these words are called kritvortha. Kritvorthe ime pratyaha bhavanti. Now dvis trish chaturiti. Yada dvihi trihi chatuhu iti kritvorthe padani vartante. Tesham visargasya sthane kupvoho parayoho shattvam bhavati. Yatha dvihi karoti. Tesve dvish karoti. Anyatarasyam iti uktatvat tadabhave pakshe dvih karoti. Dvihi karoti. Evam trish karoti, chatush karoti. Ityadina. Krutvorthe kim? Now the question is, why to say krutvorthe? Because, as I told, the words dvihi, trihi, chatuhu are, dvihi, trihi means it is krutvortha. The simple pratipadika would be dvi, tri. In the sutra, Panini is saying dvis and tris, which means he has already included the such pratyaha. Means it is already in krutvortha. Why to specify krutvortha? The question is, when you say dvis trish chaturiti, you have, what do you hear here? You hear dvis, tris and chatur. Dvis is such pratyayanta of dvi. Such comes in krutvortha. So dvis is always krutvortha with no exceptions. Similarly, tris means krutvortha. Tris iti such pratyayantaha krutvorthe eva asti. Evam chatur iti. Krutvorthe eva vartamananam shabdanam. Krutvorthe iti prithak kimartham vaktavyam. When they are already in krutvortha, when it is obvious that dvis and tris are already krutvortha, why to specify the krutvortha? Is the question. The krutvortha is needed for chatur. Because for the chatur shabda vishaye, pratipadikam api chatur ityeva bhavati, such pratyaye krute api chatur ityeva rupam bhavati. Dvi ityasya dvihi, tri ityasya trihi, kintu chatur ityasya chatur ityeva bhavati. In the pratipadika, there is no difference in case of chatur, because the sakara gets lopa and you are still left with chatur and chatur. Now, if he hadn't included krutvortha, you wouldn't know if the chatur is only krutvortha or even the ordinary chatur. Right. So, to specify that all these three should be in krutvortha, he specifies that. Which means, if it is the usual chatur shabda, where it just indicates a number and not repetition of a kriya, then we do not have vaikalpika chatva. Right? So, chatushkapalaha iti pratyudaharanam diyate rikshitaihi. Chatushu kapaleshu samskrita purodashaha iti dvigusamasaha chatuhu kapalaha ityasti. Krutvortha nasti. Here the chatur is not in krutvortha. Krutvortha bhavat dvis trish chaturiti krutvorthe iti sutrasya pravrtihi nasti. Idudupadhasya cha pratyasya ityanena nityam shatvam bhavati. So since chatur, where the visarga does not belong to a pratyaya, you have a nitya shatva by the previous sutra, and this particular sutra giving optional shatva does not apply in chatushkapalaha. It would apply in chatushkaroti. He works four times. In that case, we would have an optional shatva. Chatushkaroti, chatuhkaroti, chatuhkaroti. Kintu chatushkapalaha ityatra krutvortha nasti. Tasmata atsya sutrasya pravritya bhave purva sutrena nityam shatvam bhavati. Right? Agrimam sutram asti isusohu samarthye. Paradvayam. Visarjaniyasya kupoho shaha anyatarasyam. All these are standard anuvritti in all the sutras. Isusoho samarthe. Isusoho visargasya shahasyadva kupoho parayoho. The visarga of is and us will get shatva and followed by kupoho vikalpa optionally. Sarpis karoti ityaste sarpis iti pratipadikam. So this sutra, you should notice, will apply only in case of pratipadikas. If the is and us are the part of a pratipadika, sarpir karoti sasajushoruhu visargaha sarpihi karoti ityatra सर्पिष् करोति सर्पिः करोति सर्पिः करोति इति रूपत्रयं भवति. Why this sutra is needed? Because here the visarga is not apratyaya. The sarpi is an unadi pratyayanta, where you have sripudhatoho isunva. I don't remember the exact pratyaya, but this is from a pratyaya, unadi pratyaya. Now this visarga is pratyaya. Since it is pratyaya, irudupadhasya cha pratyasya will not apply. Here you would not get shatva. So this particularly says for is and us. If they happen to be a part of the Pratipadika also, then when it is followed by Kavarga or Pavarga, we have an optional Shatva. Sarpish Karoti, Sarpih Karoti, Sarpih Karoti. Evam Dhanush. Ityatrapi Dhanush Karoti, Dhanuh Karoti, Dhanuhu Karoti. An optional Shatva in case of Is and Us. Right? Now question, he says, Isusoho Samarthye. Samarthyam namakim, samarthyam iha vyapeksha. Actually, samarthyam dvidha, vyapeksha ekarthi bhavaha. There are two kinds of samarthya. Samarthya is the capacity or the inherent ability of one pada to be associated with another. Ekasya padasya anyena padena saha anvayasya yat samarthyam asti tadeva atra samarthyam. Here samarthyam means the capacity of one pada being associated with another. A classic example of this is, for example, you have Rajyaha Purushaha, where we do a samasa called Raja Purushaha, which means the son of the king. Now, if there is a sentence which says, Bhavati Darshanam Rajyaha Putraha Chorasya Dhavati, is the sentence. The anvaya, the proper anvaya is Rajyaha Darshanam Bhavati. It is on seeing the king, Chorasya Putraha Dhavati. The thief's son flees is a translation. But how is the pada arrangement in Sanskrit is Bhavati Darshanam Rajyaha Putraha Chorasya Dhavati. This is the arrangement of words. Now here also you hear Rajyaha Putraha. Bhavati Darshanam Rajyaha Putraha Chorasya Dhavati. You have Rajyaha Putraha. We all know that if you have a vigraha vakya saying Rajyaha Putraha, the word would be Rajaputraha. Here, can we do a samasa like that? Can we do Rajaputraha here? Bhavati Darshanam Rajaputraha Chorasya Dhavati. Does not make any sense. Why does it not make any sense? Because the word Rajyaha does not have Samarthya with Putraha. Putraha is associated with Chorasya and Rajyaha is associated with Darshanam. Rajyaha Darshanam Bhavati Chorasya Putraha Dhavati. Right? Where is the Anvaya is the question. That is, you cannot relate any word to another word. So, where the two words have relation to each other, it is called Samarthya. The Samarthya is of two types. It is called Vyapeksha Ekarthi Bhavaha. Samase Yat Samarthyam Tatu Ekarthi Bhava Samarthyam. Vakya Yat Samarthyam Tatu Vyapeksha Samarthyam. So, in samasa also, to make a samasa, in a samasa, you should have the two words should be related to each other. Right? So, that is called ekarthi bhava samarthya. Similarly, in a sentence, the words have to be related to each other. That is called vyapeksha samarthya. Right? So, iha samarthyam vyapeksha. In this sutra, samarthya, the samarthya which is being referred to is vyapeksha. What does it mean? Idam tu samanena samarthyam dvidha bhavati vyapeksha samarthyam ekarthi bhava samarthyam cheti tatra vakye yat samarthyam vartate padanam tad vyapeksha samarthyam ityuchyate samase yat samarthyam bhavati tad ekarthi bhavah ityuchyate samarthye kim atra samarthye ityukte kim tishthatu sarpihi pibatvam udakam iti vakyam. This is the sentence. Tishthatu sarpihi pibatvam udakam. Sarpihi means ghee. Okay, I hope you know. So, what is the context? There is somebody is boiling butter to get ghee, heating butter. Butter. So, another person is telling, Tishthato sarpihi, let the ghee stand, that is, let it boil. Tvam udakam piva, you have water, you drink water. That is the sentence. Now, here, does sarpihi and piba have anvaya with each other? Is it sarpihi piba? He is not saying drink ghee. Right? పిబ రిలేట్స్ టు ఉదకం, ఉదకం పిబ, సర్పిహి తిష్ఠతు, సర్పిహి రిలేట్స్ టు తిష్ఠతు అండ్ పిబ రిలేట్స్ టు ఉదకం, విచ్ మీన్స్ దెర్ ఇస్ నో సామర్థ్య బిట్వీన్ సర్పిహి అండ్ పిబ. రైట్, సర్పిహి డస్ నాట్ రిలేట్ టు పిబ ఎట్ ఆల్. సర్పిహి రిలేట్స్ టు తిష్ఠతు, పిబ రిలేట్స్ టు ఉదకం. దెర్ ఇస్ నో సామర్థ్య ఇన్ దిస్ సెంటెన్స్, దెర్ ఇస్ నో సామర్థ్య బిట్వీన్ సర్పిహి అండ్ పిబ, విచ్ మీన్స్ ద వర్డ్స్ సర్పిహి అండ్ పిబ ఆర్ నాట్ రిలేటెడ్ టు ఈచ్ అదర్. ఇన్ దిస్ కేస్ దెర్ ఇస్ నో షత్వ. ఇఫ్ యూ రిమెంబర్ వాట్ వీఆర్ డూయింగ్ ఇస్ షత్వ. షత్వ టెల్స్ ఇఫ్ దెర్ ఇస్ ఇస్ ఆర్ ఉస్. సర్పిస్ ఇత్యత్ర ఇస్ ఇత్యస్తి, తస్య స్థానే విసర్గ, అగ్రే పవర్గ అస్తి, జిహ్వామూలీయం బాధిత్వా ఇసుసోహో ఇత్యనేన షత్వే ప్రాప్తే. యాజ్ వి సా, ఇఫ్ ఇట్ వెల్ డ్రింక్ ఘీ సర్పిహి పిబ, దెన్ వీ వుడ్ గెట్ సర్పిష్ పిబ. బట్ అత్ర సామర్థ్యాభావేన అత్ర షత్వం నభవతి. దెర్ ఇస్ నో షత్వ హియర్ బికాస్ దెర్ ఇస్ నో సామర్థ్య బిట్వీన్ సర్పిహి అండ్ పిబ. సామర్థ్యాభావాత్ న షత్వం. Is this clear or should I go through this again? Anybody who wants to, who is not clear, there is samarthya. Samarthya simply means the words should be related to each other, which means the is, the word which has is and the kavarga or pavarga which is following it should be related to each other. Like you have sarpish karoti, sarpihi karoti, he makes ghee. Sarpihi is related to karoti. Then we get shatva, it becomes sarpish karoti. If you have sarpihi piba, drink ghee, it would become sarpish piba. But when there is no relation, tishthatu sarpihi pibatvam udakam, sarpihi tishthatu udakam piba, there is no relation between sarpihi and piba, so we do not have a shatva. Samarthya bhavat na shatvam. Okay, Kriya is asking for the difference between the two kinds of samarthya. It's actually, it's not a difference. Vipeksha is the సామర్థ్య బిట్వీన్ వర్డ్స్ ఇన్ సెపరేట్ వర్డ్స్ ఇన్ అ సెంటెన్స్, వైల్ ఏకార్థీభావ ఇస్ ద సామర్థ్య బిట్వీన్ వర్డ్స్ ఇన్ అ సమాస. ఐ మీన్ వెన్ దెర్ ఇస్ వెన్ వీ సే రాజ్ఞః పుత్రః, వెన్ వీ సే కంపౌండ్ వర్డ్ కాల్డ్ రాజపుత్రః, అకార్డింగ్ టు వైయాకరణ సిద్ధాంత, ద రాజపుత్రః ఇస్ అ సింగల్ వర్డ్ విచ్ కన్వేస్ ద మీనింగ్ ఆఫ్ బోత్ రాజా అండ్ పుత్ర. ఇట్స్ అ సింగల్ వర్డ్ అకార్డింగ్ టు అస్. So there is ekarthi bhava, the two words joined together to give a separate meaning in all vrittis. Ekarthi bhavanam vrittihi, not just in samasa, in all vrittis we have this ekarthi bhava, and that is just the how the words can relate to each other in a compound is ekarthi bhava samasya, and how they relate to each other in a sentence as separate words in a sentence is vyapeksha. అగ్రిమం సూత్రమస్తి నిత్యం సమాసే అనుత్తరపదస్థస్య. పూర్వసూత్రేణ ఉక్తం ఇసుసోహు సామర్థ్యే, ఇస్ ఉస్ ఇత్యయోహు సామర్థ్యే, సామర్థ్యమేప వ్యపేక్ష, విచ్ మీన్స్ దిస్ సూత్ర విల్ అప్లై ఓన్లీ ఇన్ అ సెంటెన్స్, దట్ ఈస్ సెపరేట్ వర్డ్స్ ఇన్ అ సెంటెన్స్. నిత్యం సమాసే, నో ద నెక్స్ట్ సూత్ర సేస్ ఇఫ్ ఇట్ ఈస్ అ సమాస దెన్ ద షత్వ ఇస్ నిత్య, ద ప్రీవియస్ వాజ్ అన్ ఆప్షనల్ షత్వ. అన్యతరస్యామిత్యస్య అనువృత్తౌ ఇసుసోహు సామర్థ్యే వికల్పేన షత్వం భవతి, అర్థాత్ వాక్యే వైకల్పికం షత్వం. నిత్యం సమాసే, సమాసే తు నిత్యమేవ షత్వం భవతి. ఇఫ్ ఇట్ ఇస్ అ సమాస దెన్ షత్వ ఇస్ కంపల్సరీ. నిత్యం సమాసే అనుత్తరపదస్థస్య ఇత్యస్తి. ఇసుసోహు విసర్గస్య అనుత్తరపదస్థస్య, విల్ కమ్ టు దట్ పార్ట్ లేటర్. ఇసుసోహు విసర్గస్య సమాసే నిత్యం షః స్యాత్, సమాసే యది కవర్గ పవర్గ వా అస్తి అగ్రే తర్హి నిత్యమేవ షత్వం భవతి. సర్పిష కుండిక అస్తి, కుండిక ఇస్ అ బాటల్ ఆఫ్ ఘీ. షష్ఠీ తత్పురుష సమాసే సర్పిహి కుండిక ఇది సమాసే ఏకమేవ రూపం సర్పిష్ కుండిక, ఇస్ అ సింగల్ ఫామ్, దెర్ ఇస్ నో సర్పిహ్ కుండిక ఇన్ అ సమాస. నిత్యం సమాసే, సమాసే షత్వం నిత్యం భవతి. అనుత్తరపదస్థస్య ఇత్యుక్తే కిం, ఇస్ ఉస్ ఇది యత్ పదం అస్తి తత్ ఉత్తరపదే నాస్తి చేత్. ఉత్తరపదం నామ కిం, समासे चरमावयवः उत्तरपदमिति कथ्यते. द लास्ट् वर्ड् आफ् अ समास इस् काल्ड् उत्तरपद. फार् एक्साम्पल् इफ् सर्पिषः कुण्डिका, इन् सर्पिष् कुण्डिका, कुण्डिका इस् द उत्तरपद. इफ् यु आर् डूयिङ्ग् परमसर्पिः कुण्डिका, हौ डु यु स्प्लिट् इट्? परमं च अधः सर्पिश्च, सेयिङ्ग् परमं सर्पिः. इन् दिस् समास सर्पिः इस् द उत्तरपद. इट्स् अ कर्मधारय समास. परमं सर्पिः इति कर्मधारय समासः, तत्र सर्पिः इति उत्तरपदं, परमसर्पिः. इदानीं परमसर्पिषः कुण्डिका इति यदि समासः क्रियते, इफ् यु वाण्ट् टु डू दिस् समास, दिस् सर्पि, दो इट् इस् नाट् उत्तरपद फार् दिस् समास, इट् वास् एन् उत्तरपद फार् द प्रीवियस् समास. परमसर्पिः इत्यत्र सर्पिः इति उत्तरपदं. सूत्रे अनुत्तरपदस्थस्य, उत्तरपदे न भवेत्. इसुसोः, इसुसन्तं यत् पदं तत् उत्तरपदे न भवेत्, तदैव षत्वं. तस्मात् परमसर्पिः कुण्डिका इत्यत्र षत्वं न भवति. वि डु नाट् गेट् षत्व हियर् बिकास् द सर्पि बिलाङ्ग्स् टु द उत्तरपद. परमसर्पिः इत्यत्र सर्पिः इति उत्तरपदम्. उत्तरपदे यदि इस् अथवा उस् अस्ति तर्हि विसर्गस्य स्थाने षत्वं न भवति. तद्विहाय समासे नित्यमेव षत्वं भवति. सर्पिष् कुण्डिका. Now, there is a question. This is all fine. This, so far it means, if there is an is or us, a word ending in is or us, if it is followed by kavarga or pavarga, it gets shatva optionally if it is a sentence, and shatva compulsorily if it's a samasa. So far, good. But, having told this, Panini puts the Sarpish Kundika word, the word Sarpish Kundika, in the Kaskadigana. कस्कादिगणे सर्पिष्कुण्डिका शब्दः पठितः किमर्थम् इति प्रश्नः. यु हाव् एस् ऐ टोल्ड् आल्रेडि, द कस्कादिगण इस् हेस् बीन् क्रियेटेड् टु डील् वित् वर्ड्स् विच् डु नाट् गेट् षत्व बै अदर् मीन्स्. नौ फार् सर्पिष्कुण्डिका, इफ् यु आर् सेयिङ्ग् इट् इस् अ वाक्या, देन् यु गेट् अन् आप्शनल् षत्व बै इसुसो सामर्थ्ये. यदि समासः तर्हि अनेन सूत्रेण, नित्यं समासे अनुत्तरपदस्थस्य अनेन नित्यमेव षत्वं भवति. किमर्थं गणे पाठः? वै डिड् हि हेव् टु इन्क्लूड् सर्पिष्कुण्डिका द वर्ड् इन् द गण? क्वश्चन्. कस्कादिषु सर्पिष्कुण्डिका शब्दः असमासे व्यपेक्षाविरहेऽपि षत्वार्थः, व्यपेक्षायां नित्यार्थश्च. सो दिस् वर्ड् इस् नाट् फार् समास. इन् समास विड् गेट् एन् आप्शन् कम्पल्सरि षत्व. It says, it has two purposes. One thing, asamase, arthad vakye, vyapeksha virahepi shatvarthaha. Even when there is no samarthya, he requires shatva for sarpishkundika. As we saw, isuso samarthya applies only when there is samarthya. That is, when the words are related. Panini wants a compulsory shatva, even when the words are not related. That is the first purpose. He says, for sarpishkundika, if you have the anupurvi, sarpihi kundika ityasti chet, यत्र कुत्रापि भवतु, सामर्थ्यं भवतु न वा, षत्वं भवति. असमासे व्यपेक्षाविरहेऽपि षत्वार्थः, व्यपेक्षायां नित्यार्थश्च. एण्ड् आल्सो इवन् वेन् देर् इस् सामर्थ्य इन् अ वाक्य, हि वाण्ट्स् अ कम्पल्सरि षत्व. इसो इसुसो सामर्थ्य इत्यत्र सर्पिष् करोति, सर्पिः करोति, सर्पिः करोति इति त्रीणि रूपाणि सिद्ध्यन्ति विकल्पेन षत्वविधानेन. किन्तु सर्पिष्कुण्डिका शब्दे नित्यमेव षत्वं स्यात्. सामर्थ्ये सति नित्यं षत्वं स्यात्, सामर्थ्याभावेऽपि नित्यं षत्वं स्यात् इत्येतदर्थं गणे पाठः. उदाहरणं पश्यामः. तथैव तिष्ठतु सर्पिः कुण्डिकाम् आनय इति वाक्यमस्ति. सर्पिः तिष्ठतु, लेट् द घी स्टे आर् बाय्ल्, कुण्डिकाम् आनय, ब्रिङ्ग् द बाटल्. नौ जस्ट् एस् वि सा इन् तिष्ठतु सर्पिः पिबत्वमुदकं, सर्पिः कुण्डिका इत्यनयोः सामर्थ्यं नास्ति. सर्पिः इत्यत्र तिष्ठतु इत्यनेन सामर्थ्यं, कुण्डिकामित्यत्र आनयने सामर्थ्यं. सर्पिः कुण्डिका इत्यनयोः परस्परं सामर्थ्यं नास्ति. देर् इस् नो सामर्थ्य बिट्वीन् सर्पिः एण्ड् कुण्डिका. सो बै द रूल् इसुसो सामर्थ्ये वि विल् नाट् गेट् षत्व हियर्. सामर्थ्यं, सामर्थ्याभावेन षत्वं न भवति. किन्तु अत्र भवेत्. पाणिनि वाण्ट्स् षत्व ईवन् इन् दिस् केस्. ईवन् इफ् देर् इस् नो समास, हि वाण्ट्स् तिष्ठतु सर्पिष्कुण्डिका मानय. सो दट् इस् द फस्ट् पर्पस् आफ् पुट्टिङ्ग् सर्पिष्कुण्डिका इन् द गण. द सेकेण्ड् वन् असमासे व्यपेक्षायाम्. इट्स् नाट् समास बट् देर् इस् व्यपेक्षा. दट इज देर इज सामर्थ्य बिट्वीन दीज टू सर्पिहि कुंडिकायां वर्तते किमपि अस्ति सामर्थ्यमस्ति इन दिस केस इससो सामर्थ्य इत्यनेन विकल्पेन षत्वं प्राप्तं नित्यं षत्व साधनार्थं कस्कादिगणे पाठः सर्पिश कुंडिकायां वर्तते क्लियर सो द सर्पिश कुंडिका इफ इट इज अ समास इफ इट इज सर्पिशः कुंडिका तर्हि नित्यं समासे अनुत्तरपदस्थस्य इत्यनेन नित्यं षत्वं भवति यदि समासः नास्ति असमासः तर्हि कस्कादिगणे पाठेन षत्वं भवति कस्कादिगणे पाठस्य प्रयोजनद्वयं सामर्थ्याभावेऽपि षत्वं भवेत् सामर्थ्यसत्त्वे नित्यं षत्वं भवेत् इति प्रयोजनद्वयं मनसि निधाय पाणिनिना सर्पिष्कुण्डिका शब्दः गणे पठितः राइट ओ इट इज ओके कैन यू ऑन एनी क्वेश्चंस अग्रिमं सूत्रमस्ति अतः कृ कमि कंस कुंभ पात्र कुशा करणीषु अनव्ययस्य अतः इति पञ्चमी अत् इति अकारः ह्रस्वाकारः ह्रस्वाकारात् परस्य विसर्गस्य इति अनुवर्तते एतेषु परेषु कृ कमि कंस कुंभ पात्र कुशा करणीषु परेषु नित्यं समासे अनुत्तरपदस्थस्य इति अनुवर्तते समासे षत्वं सत्वं भवति पदत्रयम् अतः कृ कमी कंस कुंभ पात्र कुशाकरणीषु अनव्ययस्य विसर्जनीयस्य कुप्वोः सोपदादौ नित्यं समासे अनुत्तरपदस्थस्य लाट् आफ् अनुवृत्ति वस्तुतः अकारादुत्तरस्य विसर्गस्य इफ् देर् इस् अ विसर्ग विच् फालोस् अकार अनव्ययस्य And the visarga does not belong to an avyaya. Samase. And there is a samasa. Nityam sakara desha hasya. Visargasya sthane sakara desho bhavati. Karotya adishu pareshu. When followed by these seven. Kru is kru dhatu dukkrin karane. Kami iti dhatuhu. Kamu dhatuhu. Kamsa kumbha patra kusha karani iti padani. Eteshu pareshu. Satvam bhavati. Anuttara padasthasya. Uttara padasthasya tu na bhavati. The examples are actually very simple. Kr karaha ityasti, ayaha karaha ityasthite, ataha parasya visargasya. The visarga which is following akara. Aya is a akara, hrasvakara, there is a visarga, and this is not an avyaya, anavyasya visargasya, samase. Ayah karaha iti samasaha, idani nityam sattvam bhavati ayas karaha ityasthaha. Kami कमधातुः अयः कामः इति स्थिते अयस्कामः दिस् इस् आल्सो हौ वि गेट् अयस्कान्त बिकास् कान्त इस् आल्सो फ्रम् कमधातु अयः डस् नाट् मीन् मेग्नेट् अयः मीन्स् अयन् अयस्कान्त इस् मेग्नेट् बिकास् दट् विच् अट्राक्ट्स् अयः अयन् इस् मेग्नेट् अयस्कान्त कान्त इस् अगेन् फ्रम् कमधातु सो वि हेव् सत्त्व कंसः अयः कंसः अयस्कंसः कंस ऐ थिङ्क् इस् सम् वेसल् ऐ एम् नाट् श्योर् कंस ऐ हेव् टु लुक् एट् ऐ डोण्ट् रिमेम्बर् वाट् इस् कंस पात्र पात्र मीन्स् अ वेसल् अयः पात्रं बिकम्स् अयस् पात्रं एनिहः कुशा अयस् कुशा कुशा इस् अ ग्रास् अ ब्लेड् आफ् ग्रास् अयस्सहिता कुश कुश दट् इस् अन् अयन् वाट् डु यु काल् अन् अयन् राड् आर् अन् अयन् स्टिक् इस् काल्ड् अयस् कुश कर्णी अयस् कर्णी ओके सो इति कृ कमि कृ कमि इति धातवः कृदन्तैः सह समासः एण्ड् देन् यु हेव् कंस पात्र कुश एण्ड् कर्णी कंस रविचन्द्रन्जी सेस् इस् अ ड्रिङ्किङ्ग् वेसल् ग्रेट् सो some kind of a vessel. So, eteshu paresho sattvam bhavati. If there is an sakara following, if there is a visarga following akara, this need not be the only example. You have yashaskamaha, shreyaskamaha, lots of them. All of them are from this sutra. Okay. अतः किं ह्रस्वकारात् परेषामेव परस्यैव विसर्गस्य स्थाने सकारादेशः गीह्कारः अस्ति. अत्र ईकारात् परत्वेन विसर्गः अस्ति, तस्मात् अत्र न भवति. अनव्ययस्य किं स्वः कामः स्वर् इति अव्ययः स्वर्गः इत्यर्थः. स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः इति अमरकोशस्य आरम्भः. स्वर् इति अव्ययं स्वर्गः इत्यर्थे स्वर् स्वर्गकामः इत्यर्थे स्वः कामः. अत्र यद्यपि अतः परत्वेन विसर्गः अस्ति तथापि इदम् अव्ययं, तस्मादत्र षत्वं न सत्वं न भवति. समासे किं समासे एव अस्य सूत्रस्य प्रवृत्तिः. यशः करोति इत्यस्ति चेत् यशस् करोति इति न भवति. सुप्तिङ्गां समासः नास्ति. सुबन्तास् एण्ड् तिङन्तास् विल् नेवर् गेट् समास वित् ईच् अदर्. सो ओन्ली इफ् इट् इस् अ कृदन्त देन् यू वुड् गेट् सत्व. इफ् इट् इस् अ तिङन्त देर् इस् नो सत्व. अनुत्तरपदस्थस्य किं दिस् इस् अगेन् परमयशःकारः. लैक् वि सा द प्रीवियस् केस् परमसर्पिः कुण्डिका. परमं चासौ परमं चादश यशः च. परमं यशः इति कर्मधारये समासे यशः इति उत्तरपदं. तस्य परमयशब्दस्य कारशब्देन समासे सत्वं न भवति. परमयशः कारः सूत्र. ऐ मीन् दो इट् लुक्स् बिग् देर् इस् नथिङ्ग् वेरि स्पेशल् इन् इट्. सो द नेक्स्ट् सूत्र इस् अधःशिरसि पदे. वेरि ईसि. अधस् एण्ड् शिरस् पदे पदशब्दे परे एतयोः सत्त्वं भवति. पदद्वयं विसर्जनीयस्य सः नित्यं समासे अनुत्तरपदस्थस्य. एतयोः विसर्गस्य सादेशः स्यात् पदशब्दे परे. अधः पदम् इत्यस्य चेत् अधस्पदं, शिरः पदं शिरस्पदम्. ओन्ली टु वर्ड्स् बिकास् इट् सेस् अधः शिरसि. अधस् एण्ड् शिरस् वेन् फालोड् बै पदशब्द देर् इस् सत्त्व. समासे इत्येव if it is a samasa vakye na bhavati adaha padam. If the two are separate words then there is no sattva. Adaha padam shiraha padam. And also again anuttara padasthasya parama shirah padam ityatra na bhavati. If shiras is an uttara pada for parama shiras then we do not get sattva. The last sutra of the prakarana which we already seen earlier is kaskadishucha. If you notice the numbers, you see that it goes in an order from visarjaniyasya saha. So it's completely in order. You have visarjaniyasya saha, sharpare visarjaniyaha, paashari, kuppoh kahpocha. Kuppoh kahpocha is the 38th sutra. After that you have exceptions to kuppoh kahpocha. You have sopadadav, inashaha, नमस्पुरसोर्गत्योः एण्ड् द फोलोइङ्ग्. ऐ मीन् ऐ डो नाट् हव् द होल् थिङ्ग् बै हार्ट्. इफ् यु सी टुडेस् क्लास् एव्रिथिङ्ग् इस् इन् वन् आर्डर् एण्ड् द होल् प्रकरण इस् रेप्ड् अप् बै पाणिनि वित् कस्कादिषु च. सो हविङ्ग् मेन्शन् पर्टिक्युलर् सूत्रास् फार् ईच् आफ् द केसस् ईवन् आफ्टर् दट् ही हेस् सम् वर्ड्स् विच् डु नाट् फाल् इन् टु एनी केटगरी. वि स्टिल् डु नाट् गेट् शत्वा बै एनी. ही काण्ट् मेक् रूल्स् फार् देम् बिकास् दे आर् इण्डिविजुवल् exceptional cases. So he puts all those words into one class and says in this gana take sakara or shakara and be done with it. So kahpayor apavadaha eshu ina uttarasya visargasya shahasyat anyasya tu saha. So in all these if the visarga is preceded by akara there is sakara, if it is preceded by in there is shakara. Kaha kaha ityasti kas kaha iti bhavet. सूत्रं नास्ति. वि डु नाट् हेव् एनी सूत्र टु गेट् अ सकार हिय. सो कस्कादिषु च इति सूत्रेण भवति. भाहकरः भास्करः इति अनेनैव भवति. भ्रातुः पुत्रः भ्रातुष्पुत्रः. वि आल्रेडी सा दिस्. सो दट् इस् द एण्ड् आफ् विसर्गसन्धिप्रकरणं. विसर्गसन्धिप्रकरणे विसर्गस्य विकारः द changes which happen in visarga. Visargasya utpattistu kharvasanayor visarjaniyaha ityanena. Tasya visargasya kim kim bhavati visarjaniyasya saha. Prayena sattvam bhavati. Sharpare visarjaniyaha. Sharpare khari. Arthata kshakaraha asti. Ghanadhanaha kshobhanaha. शर्परे खरि विसर्गस्य स्थाने विसर्ग एव भवति नत्वन्यत् वा शरि शरिपरे विसर्गस्य स्थाने विकल्पेन सत्त्वं भवति हरिष्येते हरिहिषेते इत्युभयं भवति ततः कुप्वोः कः पौच कवर्गे पवर्गे च परे जिह्वामूलीयः उपध्मानीयो वा भवति इत्युक्त्वा ततः कुप्वोः कः पौच इत्यस्य अपवादभूतेन सोपदादौ इणश्शः नमस्पुरसोर्गत्योः इदुदुपधस्य च प्रत्ययस्य तिरसोऽन्यतरस्यां द्विस्त्रिश्चतुरिति कृत्वोऽर्थे इसुसोत्सामर्थ्ये नित्यं समासे अनुत्तरपरस्थस्य अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य अधःशिरसीपदे तस्कादिषु च सो वि हाव् 11 सूत्रास् विच् फार्म् एन् एक्सेप्शन् टु कुप्पोः कः पौच सो आल् दिस् पुट् टुगेदर् वि हाव् विसर्गसन्धि सो द विसर्गसन्धि डेल्ट् वित् आल् केसस् वेर् द विसर्ग वास् मोडिफैड् बै सम् सूत्र सो वट् वि स्टडी नेक्स्ट् इस् वेर् देर् इस् नो विसर्ग देट् इस् यु हेव् रुत्वा एस् ऐ टोल्ड् द आल्वेस् द रूट् इस् यु हेव् सकार विच् इस् कन्वर्टेड् टु रुत्वा एण्ड् द रुत्वा खर्वसानयोः विसर्जनीयः इफ् इट् इस् फालोड् बै खर् इट् इस् कन्वर्टेड् टु विसर्ग इफ् इट् इस् नाट् खर् समथिङ्ग् एल्स् हेपन्स् एस् वि डिस्कस्ड् इन् द फस्ट् क्लास् इन्ट्रडक्षन् टु विसर्ग सन्ति यु स्टिल् हेव् मेनी प्रयोगास् ए रामो गच्छति वेर् यु हेव् एन् उकार एण्ड् अ पूर्वरूप विच् वि डिण्ट् सी दो वि स्प्लिट् इट् एस् रामः गच्छति इट् डिण्ट् अकर् इन् दिस् बिकास् देर् इस् नो विसर्ग इन्वाल्ड् देर् सो आल् दोस् केसस् वि सी इन् द नेक्स्ट् प्रकरण विच् इस् काल्ड् स्वादिसन्धिप्रकरणं स्वादिसन्धिप्रकरणं ससजुषो रुः इत्यनेन आरभ्यते पदान्तस्य सस्य सजुशब्दस्य च रुः स्यात् पदान्ते सकारः अस्ति चेत् तस्य स्थाने रुत्वं भवति रामशब्दात् सुप्रत्यये रामस् इत्युच्यते रामऋ इति भवति सो स्टार्टिङ्ग् फ्रम् देर् वि सी वाट् इस् द अदर् रूट् विच् रू टेक्स् रू केन् आक्चुलि इदर् रिमेन् एस् रेखा एस् इन् हरिर्गच्छति आर् गुरुर्गच्छति इट् केन् बिकम् विसर्ग एण्ड् चेञ्ज् आर् इट् केन् टेक् सम् अदर् रूट् सो आल् दट् विल् बि स्टडीड् इन् द नेक्स्ट् प्रकरण विच् इस् स्वादिसन्धिप्रकरणे सो विसर्गसन्धिप्रकरणे यदि सन्देहः उच्यते There is one question, how do you decide adhapada or adhaspada? Adhashirasi pada ityatra, adhaspadam ityasir adhapadam. It's not samarthya, in both cases there is samarthya. If it is a samasa, there is ekarthi bhava samarthya. If it is vakya, there is vipeksha. It's just whether you want to do samasa or keep them as separate words. If there is a samasa, in the Vedas there is a swarabheda. Samase swati swaraha vidyate. यदि नास्ति तर्हि स्वरभेदः नास्ति दट् इस् वन् डिफरेन्स् बिट्वीन् समास एण्ड् नाट् समास इट् इस् आल् विवक्ष वेदर् यु वाण्ट् टु पुट् इट् एस् राजपुत्रः आर् राज्ञः पुत्रः इट्स् अप् टु द विवक्ष आफ् द स्पीकर् नो सूत्र इस् नाट् आप्शनल् समास इस् आप्शनल् आब्वियस्लि समास If there is a samasa, then the sandhi is compulsory. Whether you do samasa or not is vivaksha. Samasa is optional. There is a mahavibhasha, all samasa, most samasas are optional. 90% of samasas are optional. If you do not do the samasa, then there is no sattva. And if you do samasa, then sattva is compulsory. The option is not for the sattva, but for the samasa. So Ravi says the adhaspadam in Krishna Yajurveda. If you can just find out where it is, it would be good, but I do not know where it appears. If anybody can find out where, because grammar is always very practical, it has to be. Unless you have prayogas, you are learning Vyakarana to support the prayogas. Unless we know the prayogas, there is not much point in going through all this. Any other questions? We can stop here and I will not be able to teach on Wednesday. There is no class on Wednesday. On Friday also I am not sure if I will be able to give take class. I will inform you by Thursday about the class on Friday, but there is no class on Wednesday. Very sorry, but the next few weeks I might be a bit. I am not sure when I'll be able to take the class or not. I try to inform you as soon as I know, but please bear with it. ఏనాక్ష సమాం నాయమధిగమ్య మహేశ్వరా కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః మునిత్రయం నమస్కృత్య తదుక్తిః పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే.